हा वदतु, नमो नमः सर्वेभ्य। हा वदतु भगिनि।
ॐ गणेशाय नमः। ॐ वागर्थाविव सम्प्रक्तौ वागर्थप्रतिपत्तये जगदः पितरं वन्दे पार्वती परमेश्वरौ। ॐ एनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरि ओम्।
उत्तमं, धन्यवादः भगिनी।
धन्यवादः।
एकं कथा अस्ति, शीर्षक सुन्दरं शीर्षक अस्तु अलसः बालकः, किन्तु तद् दत्तं नास्ति इति मन्ये, कथा एव दत्तं, कथा कश्चन बालकः अस्ति इति। तत् पठतु भगिनी, पूर्णतया पठतु।
उच्चैः पठामि वा?
हा हा, उच्चैः पठतु सर्व, हा पूर्णतया पठतु एकवारं।
कश्चन बालकः अस्ति, सः अलसः अस्ति, सः प्रतिदिनं समयेन विद्यालयं न गच्छति। एकदा सः उद्यानं गच्छति, तत्र एकं काकं पश्यति। सः काकं क्रीडार्थम् आह्वयति। काकः वदति, मम समयः नास्ति इति। अनन्तरं सः एकं शुकं पश्यति। बालकः शुकं क्रीडार्थम् आह्वयति। सः शुकः अपि मम समयः नास्ति इति वदति। शिवरूपा भगिनी,
नमस्कारः भगिनी।
नमस्ते शिवरूपा भगिनी, नमस्कारः भगिनी। एकं अद्य एव अहं काञ्चन कथा, शीर्षिका तु कथा एव अस्ति, तत्र प्रथमवाक्यं कश्चन बालकः अस्ति इति, कथा एव। द्वितीयपरिच्छेद पठतु भगिनि, उच्चैः पठतु द्वितीयपरिच्छेदः।
मातुः देशभक्ति भगिनि,
न कथा इति प्रथमवाक्यं कश्चन बालकः अस्ति इति, सः अलसः अस्ति इति एकं कथा, लघुकथा अस्ति।
आं भगिनि,
पश्यति वा तत्र, पश्यति वा?
वाट् एवर् यु हेव् फार्वर्डेड् भगिनि, बट् इन् दट् टैटिल् वर्षाकालः मातृदेशभक्ति मथुरा यात्रा कथा।
पुनः वदतु भगिनि, न शृणोमि अहं, पुनः वदतु
भगिनि। आपने जो फॉरवर्ड किया है ना मुझे, इसमें जो आपने बोल रहे वो उस टाइटल का कथा नहीं है इधर?
नहीं टाइटल नहीं, टाइटल में खाली कथा दिया भगिनी, कथा है दत्तम।
फाइल फाइल के नाम है अलसः बालकः कथा इति।
ओके भगिनी, ओके भगिनी, गॉट इट।
धन्यवाद सुधा भगिनी, अहं तु न अवगतम एव।
नो प्रॉब्लम भगिनी।
ओके अद्य अहम् ओपन। आं भगिनी, कश्चन बालकः अस्ति सः अलसः अस्ति इति एव।
आं भगिनि, अहं प्रथम तु अहं पठामि, अद्य द्वितीय भवती वदतु,
द्वितीयपरिच्छेदे पठतु भगिनि।
आं भगिनि, अनन्तरम् एकं पिपीलिकां पश्यति, क्रीडार्थम् आह्वय चालयति च तदा पिपीलिका अपि समयः नास्ति इति वदति बालकः सर्वं शृणोति तस्य लज्जा भवति सर्वे स्वकार्ये निरतः इति जानाति सः विद्यालयं समये न गच्छति सम्यक् पठति च
उत्तमं प्रथमपरिच्छेद आरभ्य एकमेकं वाक्यं स्वीकृत्य किञ्चित् अवगतं वा न वा हा सुधा भगिनी त्रीणि वाक्यानि प्रथमत्रीणि वाक्यानि करोतु भगिनि
आं भगिनि कश्चन बालकः अस्ति कश्चन इति सर्टन् बालकः बाय् अस्ति इस् देर्
कश्चन
कश्चन
इति हा कश्चन सन्धि भूत्वा शकार आयाति कश्चन इत्युक्ते अ सर्टन् बाय् अस्ति अस्ति धातु अस् धातुतः आयाति भवती तु जानाति एव अग्रिमं
सः अलसः अस्ति that boy is lazy alasah lazy saha pratidinam samayena vidyalayam na gachati he doesn't go to school on time every day
uttamam tadanantaram shivarupa bhagini agrimam trini vakyani pathatu bhagini
aam bhagini सः एकदा सः उद्यानं गच्छति दट् मीन्स् ही अलोन् वेण्ट् टु द गार्डन्
एकदा एकदा इत्युक्ते
अलोन् ही अलोन् ही हिम्सेल्फ्
न न न कदा पदं कदा
कदा वाट् रैट् भगिनि
न न कदा विषयकः तत्र समय विषय तु समय कदा इत्युक्ते कदा इत्युक्ते
समयः कदा समयः
न न कदा इत्युक्ते विषय तु सम एव हा कब्
कब्
लैक् क्वश्चन् वेन्
वेन्
हा समयप्रश्न प्रश्नवाचकशब्द कदा एकदा इत्युक्ते किम् वन् टैम्
ओ ओके वन् टैम् ओके
वन् टैम्
ओके भगिनि
एक बार नो हिन्दी हौ डू
स्टोरी यस्
एक बार एक राजा था
हां
स्टोरी
अवगतं भगिनि गार्डन्
उद्यानं गच्छति उद्यानं लिङ्गं किम्
उद्यानं नपुंसकलिङ्गं भगिनि
नपुंसकलिङ्गं पदम् उत्तमम् अपि च
तत्र
गच्छति गणसङ्ख्या किम्
गणसङ्ख्या अहं न जानामि अहं पश्यामि भगिनि एकनिमिष
धातु किं
धातु गम् धातु भगिनि
गम् गम् धातु सुधा भगिनी गणसङ्ख्या किं
प्रथमः गणः अस्ति भ्वादिगणः
भ्वादिगणः उत्तमं भ्वादिगणे गम् अस्ति गच्छति सकर्मक वा अकर्मक वा
सकर्मक अस्ति भगिनि
सकर्मक
क्रियापदम्
उद्यानम् अत्र तु कर्मपदम्
कर्मपदम्
उत्तमम् अग्रिमम्
तत्र एकं काकं पश्यति सो देर् हि सा वन् क्रो
एकं काकं द्वयोः मध्ये
विशेषणविशेष्यभाव अस्ति
विशेषणविशेष विभक्तिरूपं किं
द्वितीया विभक्ति भगिनि
एकवचन काकं
काकं
लिङ्गं किं काकं तत्र पदस्य लिङ्गं
नपुंसकलिङ्गं भगिनि
अस्ति वा
एकं तु एकः
भगिनि एकं कीदृशपदं तत्र
एकं नपुंसकलिङ्गम् अस्ति भगिनि
न विशेषणविशेष अस्ति चेत् एकं विशेषण वा विशेष्य वा
एकं विशेष्य अस्ति भगिनि
न कथं जानीमः विशेष्य इत्युक्ते किं सुधा भगिनी वदतु साहाय्यं करोतु
आं भगिनि विशेष्य इति कर्मपदम् अस्ति काकम् इति
विशेष्य कर्मपदम् अस्ति वा न वा किमपि विभक्ति अस्ति चेत् विशेष्य इत्युक्ते किं
विशेष्य इत्युक्ते देट् विच् वि आर् डिस्क्रैबिङ्ग्
उत्तमम् इत्युक्ते मुख्यविषयः कः
काकं भगिनि
एकं कीदृशपदं तत्र
विशेषण अस्ति
एकं तु सर् सर्वाणि न सर् सर्वाः सङ्ख्याः शब्दाः तु विशेषण एव
ओके भगिनि
अन्यथा किमर्थं ते सन्ति सङ्ख्या प्रयोजनं किं किमपि प्रयोजनं नास्ति यदि ते विशेषण नास्ति वट् इस् द यूस् आफ् नम्बर्स् नम्बर्स् के नाट् बि अ विशेषण देन् देर् इस् नो वि देर् इस् नो प्रयोग देर् इस् नो यूस् आफ् नम्बर्स् इन् अवर् लैफ् आल् नम्बर्स् आर् ओन्लि एण्ड् आल्वेस् एड्जेक्टिव्स् वन् सन् speed of light so and so if I give you just a number for speed of light without unit without the units that it is visheshana of it has no value correct
yes
Papaji, what is the speed of light
speed of light 3 into 10 to the power 10 centimeters per second
10 zeros per second centimeters bagini ah so without badatu aham pashyami bagini spoken sanskrit madhya kaka pumlinga shabdam asti bagini
pumlingam padam katham janimah pumlingam spoken sanskrit madhye
kaka diya hai काकं तु द्वितीयविभक्ति अस्ति चेत् कर्मपदम् अस्ति सो एकः काका सो एकं काकं द्वितीयविभक्ति अस्ति चेत्
उत्तमं तदेव सत्यम् अग्रिमं करोतु
पश्यति इति सकर्मकक्रियापदम् अस्ति दृष्टातुतः आयाति सकर्मकक्रियापदम् अस्ति एकवचनं
गण किं दृष्टातु गण किं
जानामि न भगिनि
वदतु सुधा भगिनी जानाति वा
दृष्टातु भगिनि
दृष्टातु च गणसङ्ख्या भगिनि
हा गणसङ्ख्या किं उत्तमम् उत्तमं
किं भगिनि
हा सोरि ऐ वास् हेल्पिङ्ग् दीक्षिका भगिनि अस्तु हा वदतु गण किं दृश् धातु कोऽपि जानाति वा तत्र दृशिर् इति
भुआदिगणे भगिनि
भुआदिगणे एव औपदेशिक औपदेशिकरूपं किं
दृश्येर् प्रेक्षणे
प्रेक्षणे प्रेक्षणे इत्युक्ते किं
देखना
देखना अक्ष अक्ष योजयित्वा देखना उत्तमं प्रेक्षणे दृष्टातुतः पश्यति आयाति बहु किमपि तत्र अभवत् बहु किमपि सूत्राणि कार्यं कृत्वा पश्य आयाति पश्यति भवति उत्तमं
लट्लकार एकवचनपदं क्रियापदम्
उत्तमं लट्लकार एकरूप अस्तु अस्तु सः काकं अग्रिमं पठतु
सः काकं क्रीडार्थम् आह्वयति
सः इत्युक्ते सः कः
सः बालकः
सः बालकः
सः काकं क्रीडार्थम् आह्वयति सो खेलने के लिए काकं को बुलाया है
आह्वयति क्रीडार्थम् इति पदस्य विषये वदतु
क्रीडार्थम् इति इट् विल् बि फार् रीज़न्
अर्थ अर्थ इत्युक्ते वट् इस् द पर्पस्
खेलने के लिए
क्रीड कुतः आयाति क्रीड क्रीडति
क्रीडति पश्यामि भगिनि क्रीडति
कीदृशधातु
क्रीडति टु प्ले
सकर्मक वा अकर्मक वा
क्रीडति अकर्मक अस्ति भगिनि
अकर्मक अस्ति क्रीडति अकर्मक अस्ति अकर्मक अस्ति चेत् कथं वक्तव्यं किमपि वाक्ये कथं वक्तव्यं
कर्मपदं न लेता है
न स्वीकरोति इत्युक्ते तृतीया योजयित्वा
तृतीया फार् ए रीज़न्
न तृतीया इत्युक्ते कन्दुकेन क्रीडति
उस्के सहाय द्वारा
उस्के साथ उत्तमम् उत्तमम् उस्के साथ कन्दुकेन क्रीडति इत्युक्ते किं तृतीया कन्दुकेन कन्दुकेन द्वारा क्रीडति इति क्रीड् धातुतः आयाति उत्तमम् आह्वयति कुतः आयाति आह्वयति
आह्वयति इति
जानाति वा आह्वयति कथं जानीमः प्रक्रिया किम्
आह्वयति मीन्स् बुलान राइट भगिनि
बुलान
सो इतर अष्टाध्यायी मध्ये अहं न
उत्तमम् अष्टाध्यायी मध्ये नास्ति किमर्थं नास्ति किमर्थं नास्ति ऊहं करोतु किमर्थं नास्ति ऊहां करोतु सुधा भगिनी ऊहां करोतु किमपि दीप्षिका भगिनी ऊहां करोतु
इति आह्वयति इति आह्वे इति धातु अस्ति आह्वयति इति उपसर्गः
अस्ति वा
न उपसर्गः अस्ति
उपसर्ग अस्ति चेत् तत्र न दत्तम् इत्युक्ते बहवः उपसर्गाः सन्ति प्रत्येकं यदि अष्टाध्यायी मध्ये सन्ति चेत् बहु बृहत् भवति वेब्सैट् मध्ये बहु बृहत् भवति अधुना एव बहु किमपि अत्र अस्ति उपसर्ग विना तु धातु किं भवति किमस्ति ऊहां करोतु आयोगः
आयोगः ह्वे
ह्वे
द्वे द्वे इति धातु, धातुरूपं किं वेञ वेञ् वेञ् इति, औपदेशिकरूपं वेञ् ञ ञकार अन्ते आयाति हलन्त वेञ्। अर्थः कः? स्पर्धायां शब्दे च इत्युक्ते अर्थद्वयं, स्पर्धायाम् अपि च शब्दे। शब्दे इत्युक्ते किम्? शब्दे इत्युक्ते किम्?
शब्दे इत्युक्ते किमपि सौण्ड् भगिनि।
शब्दे इत्युक्ते ध्वनिः, ध्वनि शब्द इत्युक्ते शब्दे तु सप्तिम सप्तमी अस्ति। शब्दः शब्दौ शब्दाः इति प्रथमविभक्तिरूपाणि, अपि च स्पर्धायां, स्पर्धायाम् इत्युक्ते किम्?
उस कॉम्पिटिशन में,
कॉम्पिटिशन टू कम्पीट, टू कम्पीट और टू साउंड इति अर्थद्वयम् अस्ति। कस्य अर्थद्वयम् अस्ति? धातु ह्वे। कीदृशधातु? भ्वादिगणे उभयपदी, उभयपदी इत्युक्ते किम्?
दोनो आत्मै आत्मनेपदी परस्मैपदी भगिनी।
आम्, आत्मनेपदी वा आत्मनेपदी अपि
परस्,
यहाँ पे लिखा करो, हाँ अपि परस्मैपदी। वे धातुतः आयाति सकर्मक धातु, सकर्मक इत्युक्ते
कर्मपदं स्वीकरोति।
कर्मपदं स्वीकरोति। अधुना कर्मपदं किम्?
अधुना कर्मपदं नास्ति भगिनि।
नास्ति वा? वाक्यं पुनः वाक्यं पश्यतु।
एकनिमिषः भगिनि। सः काकं कर्मपदम् अस्ति।
काकम् आह्वयति। सः कः? सः बालकः। बालकः आह्वयति। कम् आह्वयति? काकम् आह्वयति।
काकं बालकः काकम् आह्वयति।
तदेव, बालकं का बालकः काकम् आह्वयति।
किमर्थम् आह्वयति? क्रीडार्थम् आह्वयति।
सुन्दरं, तदेव वक्तव्यं। किमर्थं? क्रीडार्थम् आह्वयति। सः कः? सः बालकः। सः कम् आह्वयति? सः काकम् आह्वयति। सः किं करोति? सः आह्वयति इति सर्वाणि रूपाणि समीचीनमेव, उत्तमम् उत्तमम्। दीक्षिका भगिनी, अग्रिमं वाक्यं पठतु भगिनी, करोतु।
काकः वदति, मम समयः नास्ति इति।
वदतु।
काकः वदति, काकः बोला, मम समयः, मेरे पास समय नहीं है।
मम विभक्ति रूपं किम्?
मम
मम कोऽपि जानाति वा? पापाजी जानाति वा? मम
षष्ठी विभक्ति,
षष्ठी विभक्ति। षष्ठी विभक्ति अर्थः कः?
बिलोङ्गिङ्ग् टु माइन,
सम्बन्धः।
सम्बन्धः इत्युक्ते सम्बन्धः, बिलोङ्गिङ्ग् टु। किञ्चित् क्लिष्टा जाता भगिनी तत्र।
आं भगिनि,
संस्कृतभाषायां वयं किमपि न ओनर्शिप् नास्ति अत्र पृथिव्याम् ओनर्शिप् नास्ति। इत्युक्ते सम्बन्ध एव, शरीरस्य सम्बन्ध, आत्मातः सम्बन्ध, किमपि सम्बन्ध एव। ओनर्शिप् तु पदमेव नास्ति इति मन्ये संस्कृतभाषायाम्। ओनर्शिप् इति पदमेव मन्ये नास्ति चेत् नास्ति इत्युक्ते तत् विषय एव न अस्ति ओनर्शिप् इत्युक्ते अद्यतनकाले तु सर्वस्य प्रमुखविषय अस्ति ओनर्शिप् किन्तु संस्कृतभाषायाम् अपि च संस्कृति मध्ये तु नास्ति उत्तमम् अस्तु सो काकः वदति किं वदति भगिनी
मम समयः नास्ति
समयः कीदृशपदं
समयः संज्ञापदम्
उत्तमं कीदृशसंज्ञापदम् कीदृश इत्युक्ते लिङ्गं वचनं विभक्ति सर्वं पुंलिङ्गं पदम् अपि च
प्रथमाविभक्ति एकवचनं
हा कथं जानीमः प्रथमाविभक्ति अत्र
रामः रामौ रामाः
तत्तु सत्यं किन्तु अत्र समयः कथं जानीमः प्रथमविभक्ति इन्फरेन्स् न भगिनी वाक्ये पश्यतु एकवारं नास्ति इति तु क्रियापदमस्ति कीदृशक्रियापदम्
नास्ति कर्मकक्रियापदम्
अकर्मकक्रियापदम् उत्तमं धातु किम् न धातु वा नास्ति पदद्वयं तत्र ते के पापजी नास्ति पदद्वयं ते के पदद्वयं तत्र नास्ति पदम्
अस्ति
न योगः अस्ति न योगः अस्ति न तु अव्ययं पदम् नस्य किमपि धातु नास्ति तत्र न तु अव्ययपदम् अस् धातुतः अस्ति आयाति अस्ति अस् धातु अकर्मकधातु इत्युक्ते विषयः कः वाक्ये मुख्यविषयः कः इत्युक्ते कर्तृपदं किम् कर्तृपदं
समयः
समयः अस्ति किन्तु अत्र तु समयः न अस्ति समयः न अस्ति मम समयः नास्ति इत्युक्ते सम्बन्ध मम तु कीदृश प्रातिपदिकं किं मम
प्रातिपदिकम् अस्मत्
अस्मद्दकारान्त
सर्वनाम
सर्वाणि रूपाणि वदतु एकवारं शीघ्रम् वदतु सर्वाणि
अहम् आवां वयं माम मा आवां
नौ
अस्मान् नः मया आवाभ्याम् अस्माभिः
मह्यं
मे अवाभ्यां नौ अस्मभ्यं
नः
मत अवाभ्यां
मत वा
मत अवाभ्यां अस्मत् मम मे
मम न
मम मे आवयोः नौ अस्माकं नः मयि आवयोः अस्मासु
उत्तमम् अधुना वाक्ये काकः वदति मम समयः नास्ति इति काकः यत्किमपि वदति एकम् अन्यरूपं वदति चेत् प्रयत्नं करोतु एकम् अन्यरूपं किं वदति काकः
मम
रूपद्वयम् अस्ति तत्र
व्यस्त अस्ति
न न मम भगिनी एव अधुना एव पठितवती मम एकम् अन्यरूपम् अस्ति मम मे मम रूपद्वयं तत्र मे यदि मे योजयामश्चेत् वदतु
मे समयः
समयः नास्ति मे किमपि समयः नास्ति मे इत्युक्ते मम समयः नास्ति अग्रिमं पठतु
अनन्तरं सः एकं शुकं पश्यति अनन्तरं मतलब फिर आगे जाकर
कीदृशपदम् अनन्तरं कीदृशपदम्
अनन्तरं
कीदृशपदम् अनन्तरं कथं जानीमः साहाय्यं करोतु कोऽपि हा कीदृशपदं पदस्य अव्ययपदम् अस्ति तत्र अनन्तरम् अव्ययपदम् अन् अन्तरम् इत्युक्ते अन्तरविना इत्युक्ते साक्षात् साक्षात् इत्युक्ते किम् किमपि अन्तरविना मध्ये किमपि अन्तराया नास्ति साक्षात् इत्युक्ते इमीडियेट् फालोयिङ्ग् वन् आफ्टर् दि अदर् टचिङ्ग् वन् टचिङ्ग् दि अदर् One action touching the other. Anantaram. Nantaram. See, if there is a gap, then you will not say Nantaram. Then you will say Nantaram gap, Nantaram. See, Hana, when we talk, how do we use the word Nantaram in Marathi? They use this all the time, Nantaram. In Hindi we say Uske Baad. तो उसके बाद इन हिंदी भी से बट उसके बाद हाउ डू यू यूज से आई एम डूइंग समथिंग से आई एम कुकिंग देन आफ्टर कुकिंग आई टेक अ ब्रेक देन आफ्टर दैट आई गो फॉर अ वॉक हाउ विल आई से इट खाना बनाने के बाद थोड़ा आराम किया फिर घूमने गई है ना वी विल यू कैन नॉट से खाना खाने के बाद घूमने गई इट्स नॉट राइट यू टुक अ ब्रेक नंतर अनंतरम इत्युक्ते किम किमपि अन्तर नास्ति तत्र साक्षात् इमीडियेट्लि आफ्टर् इत्युक्ते मध्ये किमपि न भवति अत्र क्रियापदस्य विषये अवगतं वा अन् अन्योग इत्युक्ते अन्योगः अन् इत्युक्ते नास्ति न मा न अन्तर्विना अन् अन्तरम् अन् इति एकम् उपसर्ग अस्ति तत्र विपरीतार्थक अस्ति तत्र विपरीतार्थक अन् अस्ति अन् अन्तरम् अनन्तरम् हा वदतु भगिनी
अनन्तरं सः
सः कः
सः बालकः बालकः एकम्
एकं कीदृशपदं तत्र
एकं विशेषणपदं
लिङ्गपदं लिङ्गं
पुल्लिङ्गम्
अत्र पुंलिङ्गं कथं जानीमः पुंलिङ्गं वा स्त्रीलिङ्गं वा कथं किमपि कथं जानीमः शब्दमञ्जर्यां तु एकं किन्तु अत्र विशेषण अस्ति कस्य विशेषण शुकः शुकः कीदृशपदम् अत्र तु शुकं दत्तं कथं जानीमः शुकं कीदृशपदं पश्यतु कथं जानीमः नपुंसकलिङ्गम् अस्ति अम् अस्ति तत्र अस्तु अम् अस्ति किन्तु क्रियापदं किं वाक्ये
क्रियापदं पश्यति।
हा, कीदृश क्रियापदं
पश्यति? अकर्मकक्रियापदम्
अस्ति वा?
Somebody has to see. Ah. Akarmaka.
No, somebody has to see. No, somebody sees something. You have to see something.
All the actors see.
Ah. Kimapi pashyati va? Aham pustakam pashyami. Aham?
Akarmaka kriyapada.
Ah. Balikam pashyami. Tyukte kim? Sakarmaka eva drishtatutah ayati. Aduna eva vayam. चर्चा कृतवन्तः। उत्तमं।
सः पश्यति।
सः पश्यति तदनन्तरं कं पश्यति?
शुकं पश्यति।
हा, शुकं कीदृशपदम्?
कर्मपदम्
इत्युक्ते विभक्ति
द्वितीयविभक्ति।
उत्तमं, तदेव अम् आयाति। नपुंसकलिङ्गं तु नास्ति। कथं जानीमः नपुंसकलिङ्गं? यदि नपुंसकलिङ्गम् अस्ति तत्तु समानरूपम् एव। शुकः यथा पिताजी उक्तवान्, शुकः पुंलिङ्गं पदम्, शुकः शुकम् अत्र। अनन्तरं सः एकं शुकं पश्यति। अग्रिमं,
बालकः शुकं क्रीडार्थम् आह्वयति।
आह्वयति,
आह्वयति। बालकः शुकं क्रीडार्थं, खेलने के लिए बुलाया। आह्वयति,
बुलाया नहीं, बुलाता है।
लट, लट रूपम् इत्युक्ते वर्तमानकाले, इत्युक्ते बुला रहा है या बुलाता है। उत्तमम्, उत्तमं। लघु लघु प्रश्नवाचक वाक्यं वदतु, तदनन्तरम् उत्तरं वदतु भगिनि, तस्य वाक्ये एव। वाक्यस्य लघु लघु प्रश्न पृच्छतु। इत्युक्ते कः आह्वयति?
कः आह्वयति? आह्वयति बालकः, आह्वयति,
आह्वयति,
आह्वयति, आह्वयति। कः आह्वयति? बालकः आह्वयति।
अनन्तरं कम् आह्वयति, कम् कीदृशपदम्? किं प्रातिपदिकस्य पुंलिङ्गं रूपं, द्वितीयविभक्ति। कः कौके, कम् कौकान्, केन काभ्यां, कैः इति। प्रश्न वदतु।
कम् आह्वयति,
बालकः कम् आह्वयति,
आह्वयति बालकः शुकम् आह्वयति। क्यों बुला रहा है, किमर्थम्?
किमर्थम् आह्वयति?
किमर्थम् आह्वयति बालकः? क्रीडार्थम् आह्वयति।
उत्तमं, तदेव उत्तमं। पापाजी अग्रिमं पठतु।
सः शुकः अपि, मम समयः नास्ति इति वदति।
इत्युक्ते
शुकाय अपि मम समयः नास्ति,
मम समयः नास्ति, किमपि समयः नास्ति, अहं
व्यस्त।
व्यस्त इन् एकम् अन्य अर्थः अस्ति व्यस्त संस्कृतभाषायाम्, इत्युक्ते स्केटर्ड्, मैण्ड् इस् स्केटर्ड्,
व्यस्त,
एकाग्रता नास्ति, व्यस्त। अपि आधुनिककाले तु बहु उत्तमम् अस्ति व्यस्त, किन्तु संस्कृते न, इत्युक्ते एकाग्रता एकमेव, किमपि अन्यं मनसि न भवेत् इति। अस्तु, उत्तमं। हा, उत्तमं। सुधा भगिनी पठतु अग्रिमम्।
आं भगिनि, अनन्तरम् एकां पिपीलिकां पश्यति। पश्यति इति दृश् धातुतः आयाति क्रियापदं प्रथमपुरुषे एकवचनम् अस्ति. पिपीलिकाम् इत्युक्ते आण्ट् इति स्त्रीलिङ्गं द्वितीयविभक्ति एकवचनं कर्मपदमस्ति.
आकारान्त
स्त्रीलिङ्गपदमस्ति. रमावत् एकां पिपीलिकाम् एकाम् इति विशेषणमस्ति. एकां पिपीलिकां द्वयोः मध्ये विशेषणविशेष्यभावमस्ति.
उत्तमम्.
अनन्तरम् इति अव्ययपदमस्ति. अनन्तरम् एकां पिपीलिकां पश्यति. क्रीडार्थम् आह्वयति च. द्वित्वं कार्यं भवति. क्रीडार्थं अपि आह्वयति.
हा, द्वित्वं किं भगिनि इत्युक्ते पुनः किम् अभवत्? किम् अभवत् तत्र क्रीडार्थम् आह्वयति च इत्युक्ते किं तत्र?
For the purpose of playing and calling.
न भगिनि, तत्र च इत्युक्ते ओके पश्यतु, अत्र श्याम वदति अहं गच्छामि, रामः वदति अहमपि. अहमपि किम्? अहमपि गच्छामि, तदेव अहमपि. अन्यथा अहमपि तु पूर्णवाक्यं नास्ति. किन्तु सन्दर्भे अहम् अपि इत्युक्ते किं? भवान् गच्छति, अहम् अपि गच्छामि, अहम् अपि भवतः सह भवता सह गच्छामि इति सम्पूर्णवाक्यम्. अहमपि इत्युक्ते किम्? अहम् अपि भवता सह गच्छामि इति सर्वाणि पदानि सन्ति तत्र. कथं जानीमः सन्दर्भे? अत्र सन्दर्भः कः?
सन्दर्भे अपि अभवत् क्रीडार्थम् आह्वयति च इति अर्थः सः पिपीलिकां क्रीडार्थम् आह्वयति.
च किमर्थं दत्तम्?
च जैसे काकं को बुलाया ऐसे पिपीलिका को भी बुलाया.
किञ्चित् भिन्न अस्ति. और इत्युक्ते
भरत लक्ष्मण शत्रुघ्न च.
इन् अडिशन् टु
इत्युक्ते
प्रथमतया तु काकम् आह्वयति, तदनन्तरं शुकम् आह्वयति. सो अन्यथा एकम् अन्यरूपम् अस्ति, बालकः काकं शुकं पिपीलिकाम् आह्वयति, पिपीलिकां च आह्वयति इति.
आं भगिनि.
च इत्युक्ते पिपीलिकां च. किन्तु पिपीलिकां तु दत्तं नास्ति तत्र. सन्दर्भे वयं जानीमः क्रीडार्थम् आह्वयति च. उत्तमम्. अग्रिमम्.
तदा पिपीलिका अपि समयः नास्ति इति वदति. Then Pipilika also told that it doesn't have time.
Astu. Agrimam.
Balakah sarvam shrunoti. The boy heard everything.
मुख्य वाक्यम् अत्र दत्तम् अलसः बालकः किमपि न शृणोमि, अहं तु अलसः अस्ति इति न वदति किन्तु मुख्य क्रिया अत्र भवति इत्युक्ते किं, बालकः सर्वं शृणोति, तदेव परिवर्तनम् अभवत्। प्रथमतया तु शृणोतु एव कृपया बालकः सर्वं शृणोति। सर्वं कीदृशपदं तत्र?
सर्वम् इति सर्वम् इति द्वितीयविभक्ति पुल्लिङ्गपदमस्ति। सर्वम् इति द्वितीयविभक्ति एकवचनपदं।
सर्वाणि रूपाणि वदतु, कीदृशपदं? सर्वनामपदमेव।
सर्वनामपदं
सर्वाणि रूपाणि वदतु एकवारं शीघ्रं।
सर्वः, सर्वौ, सर्वाः, सर्वं, सर्वौ, सर्वान्, सर्वे।
एकनिमिष भगिनि, लिङ्गं किं तत्र?
पुंलिङ्गं।
पुंलिङ्गमस्ति चेत् पुनः वदतु, समीकरोतु।
सर्वाः
यदि अस्ति चेत् लिङ्गं किं भवति?
स्त्रीलिङ्गम्।
अस्तु, सर्वः, सर्वौ, सर्वे, तदनन्तरं
सर्वं, सर्वौ, सर्वान्, सर्वेण, सर्वाभ्यां, सर्वैः, सर्वस्मै, सर्वाभ्यां, सर्वेभ्यः, सर्वस्मात्, सर्वाभ्यां, सर्वेभ्यः, सर्वस्य, सर्वयोः, सर्वाणां,
सर्वेषां,
सर्वस्मिन्, सर्वयोः, सर्वेषु।
उत्तमं। शिवरूपा भगिनी, स्त्रीलिङ्गमस्ति चेत् सर्वा इति प्रातिपदिकं भवति, तदनन्तरं सर्वाणि रूपाणि वदतु।
सर्वा, सर्वे, सर्वाः, सर्वां, सर्वां, सर्वे, सर्वाः, सर्वाय, सर्वाभ्यां, सर्वाभिः, सर्वायै, सर्वाभ्यां, सर्वाभ्यः।
पुनः समीकरोतु भगिनी चतुर्थी। दीपशिका भगिनी पुनः वदतु।
सर्वस्यै, सर्वाभ्यां, सर्वाभ्यः,
सर्वस्यै, सर्वाभ्यां, सर्वाभ्यः, सर्वायाः, सर्वाभ्यः।
भगिनी समीकरोतु, पठति वा तदनन्तरं तत्र
सर्वेस्याः भगिनि
न सर्वस्याः, सर्वे तु एकार तु मात्रा नास्ति तत्र। सर्वस्याः,
सर्वस्याः, सर्वाभ्यां, सर्वाभ्यः, सर्वस्याः, सर्वयोः, सर्वसाम्, सर्वस्यां, सर्वस्यां, सर्वयोः, सर्वसु,
सर्वासु,
सर्वासु।
दीपशिका भगिनी नपुंसकलिङ्गमस्ति चेत् वदतु।
सर्वं, सर्वे, सर्वाणि, सर्वं, सर्वे, सर्वाणि, सर्वेण, सर्वाभ्यां, सर्वैः सर्वस्मै सर्वाभ्यां सर्वेभ्यः सर्वस्मात् सर्वाभ्यां सर्वेभ्यः सर्वस्य सर्वयोः सर्वेषां सर्वस्मिन् सर्वयोः सर्वेषु.
उत्तमम् उत्तमं तदेव. इत्युक्ते सर्व तु नपुंसकलिङ्गं पुंलिङ्गं च प्रातिपदिकमस्ति, किन्तु स्त्रीलिङ्गप्रातिपदिकं तु दीर्घ आकारान्त अस्ति. सर्वा इति मनसि स्थापयन्तु. उत्तमम् उत्तमं. हा, शिवरूपा भगिनी अग्रिमं वाक्यद्वयं पठतु.
आं भगिनि. तस्य लज्जा भवति. इट् फील्स् शेम्. हि फेल्ट् शेम्.
लज्जा भवति. तस्य लज्जा. तस्य कीदृशपदम्?
कस्य लज्जा भवति? तस्य लज्जा भवति.
तस्य कीदृशपदं भगिनि?
तस्य इति षष्टिविभक्ति अस्ति भगिनि.
प्रातिपदिकं किम्?
प्रातिपदिकं तद् शब्दः.
तत् आयाति. सर्वाणि रूपाणि वदतु.
आं भगिनि. तत् ते तानि. तत् ते तानि. तेन तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य ये तयोः ते तेषां तस्मिन् तयोः तेषु.
उत्तमम् उत्तमं. लज्जा कीदृशपदं तत्र?
लज्जा भगिनि एकनिमिषं पश्यामि भगिनि.
सर्वे साहाय्यं करोतु. धातु किं किमपि परिचयविषये वदतु. लज्जा कीदृशपदं पापजी? लज्जा.
लज्जा इति फेमिनैन् स्त्रीलिङ्गमस्ति भगिनि. आकारान्त स्त्रीलिङ्गपद पदमस्ति.
उत्तमं. तदनन्तरं
भगिनि
वदतु वदतु.
Shall I continue with the next sentence, Bhagini?
No, no, no. Lajja. Iti padasya vishaya anya kim api janati va?
Lajja iti strilinga akaranta ekavachana padam asti. Prathama vibhakti va, Bhagini?
इति लज्जा लज् धातुतः आयाति. लज्
ओके भगिनि.
लज् लज् षष्टमगण अस्ति. सुदादिगणे अस्ति. आत्मनेपदी क्रियापदम्. आत्मनेपदी धातु अस्ति. अकर्मकधातु तु अस्ति. लज्जा अकर्मक अस्ति. सुदादिगणे. सुधा भगिनी अपि च शिवरूपा भगिनी, सुदादिगणे अपि च भुआदिगणे भेदः कः?
अन्ते तु आयाति भगिनि.
न भगिनि.
न भगिनि. तुवादिगणः
सुदादिगणे सुदादिगणं गण अपि च भुआदिगण भेदः कः? मुख्यभेदः कः? व्याकरणवर्गे किमपि पठति वा तत्र भगिनि?
आं भगिनि.
भेदः कः तत्र?
स्तुतादिगणे इति
भ्वादि पश्यतु अत्र भ्वादिगणे अस्ति चेत् किं भवति मुख्यक्रिया प्रकरणं किमपि पदस्य
इति द्वयोः मध्ये आ विक्रणप्रत्यय शृणोति भुवादि अपि तुदादिगणे
उत्तमं विकरणप्रत्यये तु भ्वादिगणे किम् अस्ति तत्र शप्
अस्ति
तुदादिगणे किम् अस्ति
तुदादिगणे शा इति
शपकार नास्ति तत्र अस्तु अन्यभेदः कः तदेव तेन शप् अपि च श भेदः कः किं भवति तत्र शप् अस्ति चेत् गुणकार्यं भवति धातुतः गुणकार्यं भवति गुणकार्यम् इत्युक्ते किम्
अन्तिमे इति आयाति गुणकार्यं भवति
अन्ते तु गुणकार्यम् अन्ते इत्युक्ते कस्य अन्ते
दातवः अन्ते
इत्युक्ते धातु तदनन्तरं विकरणप्रत्यय तदनन्तरं तिङन्तप्रत्यय तिङन्तप्रत्यय इत्युक्ते किम्
अन्ते ति आयाति
तिङ् आयाति तिङ् इति एकं प्रत्याहारः अस्ति तिप् तस् झि सिप् थस् इति बहु किमपि अस्ति तत्र तिङ् इत्युक्ते ति साधारणरूपं मनसि किम् अस्ति तिङ् अस्ति इत्युक्ते क्रियापदस्य अन्तिम वर्णकः ति अस्ति चेत् परस्मैपदी ते अस्ति चेत् आत्मनेपदी किन्तु धातु तिङ् प्रत्यये मध्ये किम् अस्ति विकरणप्रत्यय अस्ति विकरणप्रत्यय इत्युक्ते भ्वादिगणे शप् अस्ति चेत् गुणकार्यं भवति तदनन्तरं भू भवति परिवर्तति गुणकार्यं कृत्वा उत्तमम् अत्र बहु किमपि अहं न वदामि केवलं लक्ष्मीभगिन्याः अपि सुब्रह्मण्यमहोदयवर्गस्य इति भगिनी पठति इति मन्ये न भगिनि
आं भगिनि किञ्चित् सूत्राणि अस्ति बट् अहं न जानामि इति
चिन्ता मास्तु किमपि प्रश्नः अस्ति अवश्यं पृच्छतु भगिनि
आं भगिनि
उत्तमम् अस्तु लज् कीदृशधातु पुनः तुदादिगणे अस्ति इत्युक्ते षष्टमगणः आत्मनेपदी अकर्मकधातु इत्युक्ते लजते लजेते लजन्ते लजसे लजेथे लजध्वे लजे लजावहे लजामहे मनसि किमपि एकं धातु स्वीकृत्य सर्वाणि रूपाणि मनसि स्थापयन्तु मम मनसि किम् अस्ति भाषा इति भाषते किमर्थं भाषा मम गुरु तत् तदा यत् किमपि बहु किमपि वर्षाणि पूर्वं वर्षाः पूर्वं वर्षे पूर्वं
अहं भाषते भाषेते भाषन्ते इति स्मरामि. सर्वाणि आत्मनेपदीरूपाणि तदेव भवन्ति. किमपि एकं स्मारयतु भगिनि. अस्तु, उत्तमम्. कथा पुनः वदतु भगिनि.
कथा
तस्य लज्जा भवति. तस्य इत्युक्ते कस्य? तस्य कस्य?
तस्य बालकः.
बालकस्य.
बालकस्य.
बालकस्य
पुंलिङ्गमस्ति. तस्य तु पुंलिङ्गं पदं, लज्जा तु स्त्रीलिङ्गं पदं. लज्जा भवति, किन्तु लज्जा अकर्मक अस्ति, कर्मपदं नास्ति तत्र. भवति अपि क्रियापदम्. उत्तमम्, उत्तमम्. अग्रिमं पठतु भगिनि.
सर्वे स्वस्वकार्ये निरताः. सो सभी लोग अपना अपना काम में बिजी है.
उत्तमम्.
सेम् हो गया बालको.
निरताः इति पदस्य विषये वदतु भगिनि.
निरताः.
पापजी वदतु. निरताः.
That becomes stronger when you say nirat. That means you're absorbed in, engaged in.
Completely. Completely absorbed. Name इत्युक्ते रथ. तदेव एकं नाम अस्ति, रति. किसका है?
रति काम, काम देवता.
काम देवता पत्नी. काम देवस्य पत्न्याः नाम किं? रति. रति इत्युक्ते किं? कम्प्लीट्लि अब्सार्ब्ड्, फुल्ली. तदेव अस्माकं देशस्य नाम अस्ति भारत. इत्युक्ते किं?
एङ्गेज्
एङ्गेज् इन् वाट्? भारत. भा इत्युक्ते रेडियन्स् लैट्.
ओके.
Soaked in light, absorbed in light. Soaked in light iti deshasya nama Bharata. Preranarthe daktam. Kintu adhunika kale tu ekameva preranasti. Mama pajve kati kiyat dhana asti, dhana masti. Bhatu visvarama sarve. किन्तु देशस्य नाम किं? भारत. तदेव रथ. निरताः यथा पिताजी उक्तवान्. निरतः इत्युक्ते
अड्जेक्टिव् दिया है भगिनि. निरतः
पूर्णतया रथ इत्युक्ते. निरत इत्युक्ते पूर्णतया रथ. सर्वे स्वकार्ये निरताः. किमर्थं निरताः दत्तम्? लिङ्गं किं? रूपं किं? वचनं किम्?
भगिनि निरताः.
सर्वे निरताः. सर्वे कीदृशपदं तत्र?
सर्वे इति पुंलिङ्गं भगिनि.
वचनं किम्?
वचनं सर्वे पुंलिङ्गं बहुवचनपदमस्ति भगिनि.
सर्वे बहुवचन पुंलिङ्गं बहुवचनरूपम् अस्ति सर्वे. तदेव निरताः. बालकः, बालकौ,
बालकाः.
तदेव निरताः आयाति. सर्वे निरताः इत्युक्ते बहुवचनरूपाणि दत्तं. स्वस्वकार्ये किमर्थं स्वस्व दत्तम्?
अप्ना अप्ना कामे.
अप्ना अप्ना. उत्तमं. तदेव स्वस्वकार्ये. कार्ये कीदृश पदं? विभक्तिरूपं किम्?
कार्ये
सप्तमी विभक्ति.
उत्तमं, तदेव सप्तमी रूपाणि वदतु भगिनी, त्रीणि रूपाणि.
कार्ये कार्ये कार्या कार्योः कार्ये कार्योः कार्येषु
कार्येषु. अत्र तु स्वस्वकार्ये निरताः. वाक्यं पूरयतु भगिनि. शिवरूपा भगिनि.
आं भगिनि, आं भगिनि.
सर्वे
सर्वे स्वस्वकार्ये निरताः
इति
इति जानाति.
जानाति
इति जानाति. सो उसको
कः जानाति, कः जानाति?
बालकः जानाति.
बालकः जानाति. जानाति कीदृशपदं?
जानाति ज्ञाधातु अस्ति भगिनि.
ज्ञाधातु किं गण गण किं कस्य गणस्य आयाति? ज्ञाधातु
क्रियादिगणः अस्ति.
क्रियादिगणः. रूपाणि वदतु भगिनि.
जानाति
अस्तु न, जानाति इति जानाति. पुनः
जानाति.
वदतु सर्वाणि रूपाणि.
जानाति
क्रियादिगणे ज्ञा अवबोधने परस्मैपदी सकर्मक. तिङन्तरूपाणि वदतु.
जानाति जानीतः जानन्ति. जानासि जानीतः जानीत. जानामि जानावः जानीवः जानीमः.
उत्तमम्. अस्तु शिवरूपा भगिनी लघुवाक्यं वदतु. जानीथ जानीथ
जानीथ सः
सः कथम् आयाति भगिनी?
भगिनी
जानीथ जानीथ
जानीथ इति मध्यमपुरुष मध्यमपुरुष बहुवचन पदमस्ति भगिनि.
कर्तृ पदं किं तत्र?
कर्तृपदं स्थ.
वदतु.
कर्तृपदं युवा यूयं यूयं
यूयं त्वं युवां यूयं जानीथ इति.
यूयं जानीत यूयं जानीत.
जानीतः. दीक्षिका भगिनी लघुवाक्यं वदतु. जानीतः युवां जानीतः. जानीवः. सुधा भगिनी वदतु.
आवां जानीवः.
उत्तमम्. जानीतः शिवरूपा भगिनी.
जानीतः प्रथमपुरुष. ते जानीतः.
ते के?
बाल ते इत्युक्ते स्त्रीलिङ्ग द्विवचनपदमस्ति.
उत्तमं, तदेव ते जानीतः. दीप्शिका भगिनी जानासि त्वं जानासि. जानन्ति सुधा भगिनी?
ते जानन्ति.
ते के?
पुंलिङ्गः.
बहुवचनं.
बहुवचनं.
उत्तमं, तदेव सुन्दरम्. उत्तमम्. सर्वे स्वस्वकार्ये निरता इति जानाति. दीप्शिका भगिनी पठतु.
सः विद्यालयं समयेन गच्छति.
समीकरोतु समयेन.
समयेन सः विद्यालयं समयेन गच्छति. वह विद्यालय को समय पर गया. गच्छति
जाता है. उत्तमम्. हाँ, लघु लघु प्रश्नवाचक वाक्य.
गच्छति सः गच्छति.
सः कः?
बालकः गच्छति.
कुत्र
गच्छति सः? बालकः कुत्र गच्छति? बालकः विद्यालयं गच्छति. समयेन टाइम कब जाता है? है ना, कब कदा? बालकः कदा गच्छति? बालकः समयेन गच्छति.
अधुना तु समयेन एड्वर्ब् अस्ति. गच्छति तः एड्वर्ब् अस्ति. समयेन गच्छति.
गच्छति
हा, क्रियापदस्य विशेषण इत्युक्ते एड्वर्ब्. आङ्ग्लभाषायां तु समयेन गच्छति तृतीया. हा, कीदृश गच्छति इत्युक्ते कीदृश गच्छति? समयेन गच्छति. समयेन गच्छति. सः विद्यालयं गच्छति. हा, प्रथम तु कथायाः आदौ किं दत्तं विद्यालयस्य विषये? बालकस्य विषये किं दत्तं कथायाः आदौ? कथायाः आदौ इत्युक्ते
इन् द बिगिनिङ्ग् आफ् द स्टोरि.
हा, किं दत्तं?
समयेन विद्यालयं न गच्छति.
न गच्छति. अधुना तु परिवर्तनम् अभवत्. किमर्थं परिवर्तनम् अभवत्? केन परिवर्तनम् अभवत्?
बालकः काकं पश्यति, शुकं पश्यति, पीप्लिकां पश्यति.
पिप्पीलिकां
पश्यति.
पश्यति वा?
अपि च सर्वे स्वकार्यं निरता.
समीकरोतु, व्याकरणसमीकरोतु. काकं पश्यति समीचीनं, शुकं पश्यति समीचीनं, पिपीलिकां पश्यति, अपि पश्यति शृणोति च.
अपि पश्यति
शृणोति च इत्युक्ते किं? पश्यति, अपि शृणोति. सर्वं शृणोति न भगिनि? सर्वं शृणोति. किमर्थं सर्वं? कर्मपदम्. कर्मपदं सर्वं शृणोति. श्रुत्वा सः चिन्तितवती. किं चिन्तितवती? बालकः किं चिन्तितवती? किं चिन्तितवती? उत्तमं. किं चिन्तितवती? सर्वे स्वस्वकार्ये निरताः भवन्ति. किमर्थम् अहं न करोति तदेव इति? किमर्थमहं न करोति इति? हा, अग्रिमम् अन्तिमवाक्यं पठतु दीक्षिता भगिनी.
सम्यक् पठति च
इत्युक्ते किम्?
सम्यक अच्छे से पढ़ा और अच्छे से पढ़ाई कर रहा है।
कह
बालक पठति सम्यक अच्छे से बालक सम्यक पठति।
किमर्थम च दत्तम
च और
क्यों
किमर्थम दत्तम किमर्थम च दत्तम
किमर्थम इसलिए ना क्योंकि वो और विद्यालयम समयेन गच्छति च सम्यक पठति
सम्यक न सम्यक
सम्यक पठति और पढ़ाई भी करता
उत्तम तदेव तदेव उत्तम सुंदरम लघु कथा किंतु सुंदरम सुंदरी कथा
अलसः बालकः
उत्तमम। हाँ अन्य कोऽपि प्रश्न अस्ति तत्र
न भगिनी
लघु लघु अस्ति अस्तु एकम अन्य कथा पठति पठामि पठामः वा अन्यथा किमपि अन्य अभ्यासं कुर्मः वदतु अभ्यासं कुर्मः अस्तु
आम्
आम् अस्तु अस्तु अभ्यासं कुर्मः पुटसंख्या अभ्यासपुस्तके पुटसंख्या अष्टविंशतिः पश्यतु हा तत्र एकं चित्रं दत्तम् पश्यति वा सर्वे पश्यन्ति वा एकं चित्रम् अस्ति चित्रस्य दृष्ट्वा स्वस्य वाक्यैः किञ्चित् वदतु सर्वे हा इति एकं चित्रम् अस्तु स्वस्य वाक्यैः किञ्चित् वदतु किं किम् अभवत् तत्र
भगिनी 6.1 राइट
हा हा वदतु हरि आरम्भं करोतु
हरिः ओम् सुप्रभात
न न न न भगिनी मम प्रश्नः कः स्वस्य वाक्यैः किञ्चित् किञ्चित् वदतु चित्रं दृष्ट्वा इत्युक्ते किं किम् अभवत् तत्र
चित्रको देखे भगिनि
तदेव कोऽपि वदतु
एकः बाल द्वौ बालकः अस्ति
द्वौ बालकः अस्ति वा समीकरोतु
बालकाः
द्वौ
बालकौ द्वौ बालकौ अस्ति विनियोगः
द्वौ बालकः द्वौ बालकौ स्तः उत्तमम् स्वस्तः उत्तमं शिवरूपा भगिनी
एकः बालकः अन्यबालकस्य प्रश्नां पृच्छति प्रश्नां पृच्छति
बालकस्य वा किमर्थं षष्ठी तत्र एकः बालकः पृच्छति अस्तु तदनन्तरं पृच्छति कीदृशधातु
पृच्छति इति
पृच्छति वदति न उक्तवती किम् उक्तवती
आं भगिनि प्रश्नां पृच्छति
पृच्छति अस्तु सो किम् लघुवाक्यं किम् एकः बालकः पृच्छति अस्तु अग्रिमम्
प्रश्नां पृच्छति
प्रश्नां किम् प्रश्नं नास्तु न भगिनि प्रश्नं पृच्छति
प्रश्नं पृच्छति
एकः बालकः
प्रश्नं पृच्छति कं पृच्छति
प्रश्नं पृच्छति
कं पृच्छति कम्
इत्युक्ते कम् इत्युक्ते किस्को किस्को पूच्छा है बालकः
ना बालकः तु पृच्छति
ने अन्य बाल अन्य बाल
अन्य बालकम्
अन्य बालकम् अन्य बालकं प्रश्नः प्रश्नं पृच्छति
उत्तमं तदेव सुधा भगिनी
एकस्य नाम रामः अस्ति द्वितीयस्य नाम श्यामः अस्ति
उत्तमम् उत्तमं रामः अपि श्यामः अस्ति हा पापाजी चित्रं दृष्ट्वा एकं स्वस्य वाक्यैः वदतु पुनः वदतु श्यामः
श्यामः रामं पुस्तकं ददाति
उत्तमं श्यामः रामं पुस्तकं ददाति उत्तमं दीप्षिका भगिनी अन्य
श्यामः रामं पुस्तकं ददाति रामं पुस्तकं स्वीकरोति
रामम् इत्युक्ते विभक्तिरूपं
श्रीरामे पुस्तको
रामे कर्तृपदम् अस्ति चेत् विभक्तिरूपं किम् वदतु पुनः
रामने न कर्ताने रामः पुस्तकं स्वीकरोति
पुस्तकं स्वीकरोति उत्तमं शिवरूपा भगिनी
आं भगिनी श्यामः श्यामः राम वदति अहं पुस्तकं ददामि
अहं
पुस्तकं ददामि रामं ददामि
रामं ददामि अपि च कं वदति
श्यामः वदति अहं पुस्तकं रामं ददामि
किमर्थं श्याम रामम् इति वदति किमर्थं नाम इति वदति श्यामः वदति अहं पुस्तकं त्वां ददामि
त्वां ददामि
त्वाम् इत्युक्ते
त्वाम् इत्युक्ते मध्यमपुरुष उस्को
भगिनि संज्ञापदं तत्र कथं पुरुषायाति त्वाम्
आं भगिनि त्वां त्वां ददामि उस्को देति
त्वां कुतः आयाति कीदृशपदं
त्वाम् इति त्वाम् इति प्रथमविभक्ति ये त्वान्त अस्मद् शब्दः अस्ति भगिनि दकारान्त
कथमायाति भगिनि समीकरोतु सुधा भगिनि वदतु
आं भगिनि शिवरूपा भगिनि वाक्यं पुनः वदतु
आं भगिनि वाक्यम् अहं वदामि इति श्यामः वदति अहं पुस्तकं रामं ददामि
रामं न त्वां ददामि
त्वां
त्वाम् इति भगिनी द्वितीया विभक्ति अस्ति भगिनि एकवचन
प्रातिपदिकं किं
प्रातिपदिकं त्वत् अस्मद् शब्दः
त्वं युवां यूयं त्वां द्वितीयविभक्ति त्वां यदि अहं वदामि मम मित्रं वदामि अहं किं वदामि त्वामेव न त्वां ददामि
प्रातिपदिकं युष्मद् अस्ति
युष्मद् इति उत्तमं युष्मदिति प्रातिपदिकमस्ति तकारान्त युष्मदस्ति त्वं युवां यूयं त्वां तदनन्तरं
युवां युष्मान्
युष्मान् इति युष्मान् हा सुधा भगिनि
आं भगिनि रामः पृच्छति पुस्तकं कस्मात् ग्रन्थालये
आयाति
कस्मात् ग्रन्थालये आयाति
कस्मात् ग्रन्थालये आयाति इति पृच्छति उत्तमं
भगिनी ऐसापि पूछ सकते न भगिनी पुस्तके किं विषयः अस्ति
पुस्तकस्य न
पुस्तकस्य
पुस्तके तु
पुस्तक मे
षष्टि इति समीचीनं तत्र भगिनि विषयः कः इति
पुस्तकस्य विषयः कः
तदेव समीचीनं दीप्शिका भगिनी अन्तिमवाक्यमेकं पश्यतु वदतु
श्यामः वदति त्वं श्यामः वदति त्वं पुस्तकं पठति
किमर्थं
पुस्तकं सम्यक् त्वं कृपया
पुस्तकं पठसि पुस्तकं सम्यक् पुस्तकम्
अस्ति उत्तमं तदेव पापाजी एकम् अन्य अन्तिमवाक्यं
द्वौ बालकौ पुस्तके द्वौ बालकौ बहूनि पुस्तकाः
पुस्तकान् पठितः उत्तमं तदेव पुनः वदतु द्वौ
बालकौ बहवः पुस्तकान्
पठतः उत्तमं तदेव सुन्दरं धन्यवादः तदेव सुन्दरं कोऽपि प्रश्नः अस्ति सरलमेव किन्तु वारं वारम् उक्त्वा एव सर्वम् आगतम्
वारं वारम् उत्तमं. कोऽपि प्रश्नः अस्ति तत्र
भगिनि? एकः प्रश्नः, समीचीनम् अपि सम्यक् इति उपयोगं
भेदः अस्ति वा? अहं तु न जानामि भगिनि यदि भेदः अस्ति. समीचीनं सम्यक् द्वे अपि समीचीनं न जानामि भगिनि. मम मन्ये द्वे अपि समान एव समानार्थक. अस्ति वा? इत्युक्ते पुस्तकं समीचीनं वा? सम्यक् तु नास्ति. ओ अस्ति वा? अस्तु. शृणोति वा भगिनि?
आं भगिनि.
सुधा भगिनि?
आं भगिनि, शृणोमि.
पापाजी वदति समीचीनम् इत्युक्ते सुधा समीचीनम् इति किञ्चित् क्लिष्टः जातः, किन्तु सुधा सम्यक् अस्ति इति तु सम्यक्. अस्तु अस्तु, धन्यवादः पापाजी. अस्तु, अन्तिममङ्गलचरणानि. हा पापाजी एव वदतु अन्तिमशान्तिपाठ.
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः
ॐ तत्सत् श्रीकृष्णार्पणमस्तु. हरिः ॐ. धन्यवादः सर्वेभ्य. नमो नमः.
नमस्कारः भगिनी. धन्यवादः.
धन्यवादः भगिनी.
धन्यवादः पापाजी. दीपशिका भगिनी धन्यवादः.
धन्यवादः
नमस्कारः.
सर्वे धन्यवादः.